इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचकः पुनीत त्रिपाठी। अथ वार्ताः। लोकसभा निर्वाचनस्य प्रथमचरणाय नामांकनस्य ह्यः अन्तिम तिथिः आसीत्। यद्यपि बिहारे नामांकन पत्राणि अद्य यावत् प्रस्तौतं सक्ष्यन्ते। प्रथमे चरणे 17 राज्यानां 4 केन्द्रशासित प्रदेशानां च 2.5% लोकसभा निर्वाचनासनेष् निर्वाचनं भविष्यति। अस्मिन् चरणे तमिलनाडु राज्यस्य 39, राजस्थानस्य 12, उत्तरप्रदेशस्य 8, मध्यप्रदेशस्य 6, उत्तराखण्ड असम महाराष्ट्राणां 5, बिहारस्य 4, पश्चिमबंगालस्य 3, मणिपुर अरुणाचलप्रदेश मेघालयानां 2, छत्तीसगढ मिजोरम नागालैण्ड सिक्किम त्रिपुरा अण्डमान लक्षद्वीप पुडुचेरी जम्मूकश्मीराणां 1 च निर्वाचनासनानि निर्वाचनाय विचितानि सन्ति। नामांकनपत्राणां समीक्षा मार्चमासस्य 28 दिनांके भविष्यति। सहैव 30 दिनांकात् पूर्वं नामांकन प्रतिग्रहणं कर्तुं शक्यते। बिहारे नामांकनपत्राणां समीक्षा मार्चमासस्य 30 दिनांके भविष्यति। अपि च अप्रैल मासस्य 2 दिनांकं यावत् नामांकनस्य प्रतिग्रहणं अनुमतम् अस्ति। प्रथमचरणाय मतदानम् अप्रैल मासस्य 19 दिनांके भविष्यति। द्वितीयचरणस्य निर्वाचनाय अधिसूचना अद्य निर्गता भविष्यति। अस्मिन् चरणे 12 राज्याणां केन्द्रशासित प्रदेशानां च 91 लोकसभा निर्वाचनासनेष् निर्वाचनद्वन्द्वं भविष्यति। द्वितीयचरणे केरलस्य 20, कर्णाटकस्य 14, उत्तरप्रदेश महाराष्ट्रयोः क्रमशः 8, मध्यप्रदेशस्य 7, असम बिहारयोः क्रमशः 5, पश्चिमबंगाल छत्तीसगढयोः 3, मणिपुर त्रिपुरा जम्मूकश्मीराणां क्रमशः 1 चेत्यादिष् निर्वाचनासनेष् निर्वाचनं भविष्यति। प्रत्याशी अप्रैल मासस्य 4 दिनांकं यावत् नामांकनं विधातुं शक्नुवन्ति। मतदानं च 26 दिनांके भविष्यति। जम्मूकश्मीरं विहाय अन्येष् राज्येष् नामांकनपत्राणां समीक्षा अप्रैल मासस्य 5 दिनांकं यावत् करिष्यते। जम्मूकश्मीरे नामांकनपत्राणां समीक्षा अप्रैल मासस्य 6 दिनांके भविष्यति। युक्रेन देशस्य विदेशमन्त्री दिमित्रो कुलेवा अद्य विदेशमन्त्री डॉ एस जयशंकरस्य आमन्त्रणे भारतस्य द्विदिनात्मकम् आधिकारिक यात्रायै नवदिल्लीनगरम् आगमिष्यति। स्वीय यात्रावधौ कुलेवा महोदयः विदेशमन्त्रिणा उपराष्ट्रिय सुरक्षा सलाहकारेण च सह विभिन्नेष् आधिकारिक उपवेशनेष् अपि च अन्येष् कार्यक्रमेष् भागं भजिष्यति। केन्द्रीय मन्त्री भारतीय जनता पार्टीति दलस्य नेता अनुराग सिंह ठाकुर प्रोदीरितवान् यत् नरेन्द्र मोदी प्रशासनेन अनुच्छेदौ 70-35A इत्येतौ दूरीकृत्वा जम्मूकश्मीरे विकासमार्ग प्रशस्तं कृतम्। श्री ठाकुर ह्यः जम्मूकश्मीरस्य झज्जर कोटली इत्यत्र वार्ताहरान् सम्बोधयन्नासीत्। आईपीएल क्रिकेट क्रीडायां ह्यः हैदराबाद नगरस्य राजीव गांधी अन्तर्राष्ट्रिय क्रीडांगणे सनराइजर्स हैदराबाद दलेन मुम्बई इण्डियंस इत्येतं दलं 31 धावनांकैः पराजितम्। तत्रैव अस्मिन् क्रिकेट मालिका स्पर्धायां अद्य जयपुरस्य सवाई मानसिंह क्रीडांगणे राजस्थान रॉयल्स दिल्ली कैपिटल्स इत्येतयोः दलयोः मध्ये स्पर्धा सायं 7:30 भविष्यति। इति वार्ताः।